तर्हि अनु अनुगायनं कुर्वन्तु द्विवारं लीलागल
लीलागल
आम् लुलल्लोल कालव्याल विलासिने लीलागल
लीलागल
लुलल्लोल
लुलल्लोल
कालव्याल पुनः
कालव्याल
इदानीं किञ्चित् इतोपि अधिकं गायामि लीलागल लुलल्लोल
लीलागल लुलल्लोग
उत्तमं लीलागल लुलल्लोल
लुलल्लोल
कालव्याल विलासिने
कालव्याल विलासिने कालव्याल विलासिने
सो इदानीं प्रथमपङ्क्ति अहम् एकवारं सम्पूर्णं गायामि द्विवारम् अनुगायन्तु लीलागल लुलल्लोल कालव्याल विलासिने प्रयत्नं कुर्वन्तु
लुलल्लोल कालव्यासिने
कालव्याल विलासिने पुनः आलेख्य गायति वा प्रथमपङ्क्ति लीलागल लुलल्लोल कालव्याल विलासिने
लीलागल लुलल्लोल कालव्यास विलासिने
उत्तमम् योर वॉइसेस् आर् नाट् क्लियर्ली हर्ड् any problem can you make it little louder yes idanim prathama panktiham punah gayami leelagala lulallola kalavyala vilasine
leelagala lulallola kalavyala
vilasine agre ganeshaya namo टू टैम्स् गणेशाय नमो नीलकमला नीलकमला थिङ्क् ट्वैस् त्रिवारम् अनुगायतु नीलकमला
नीलकमला
मल एकनिमिष मलकान्तये
मलकान्तये
इदानीं पश्यन्तु नीलकमला मलकान्तये
नीलकमला मलकान्तये
उत्तमं नीलकमला मलकान्तये
नीलकमला
मलकान्तये
नीलकमला मलकान्तये
उत्तमम् अलिके ऐ यु आल्सो सिङ्गिङ्ग् अलिके अस्ति खलु अलिके Are you also singing?
Yeah.
Okay, okay. So, I'll just explain in short. This is a Mangala Charanam in Lilavati. Okay. It's a Ganita Grantha Khalu. भास्कराचार्येण रचितं लीलावती. दिस् इस् अ ग्रन्थ इन् मेथमेटिक्स्. ओके, सो दिस् इस् अ मङ्गलाचरणम् आफ् दट् ग्रन्थ. इन् दिस् हीस् प्रेयिङ्ग् वट् यु से, हू इस् डूङ्ग् नमनं टु हूम्? गणेश. केन् यु सी इन् दिस् चित्र? यु केन् सी गणेश सिटिङ्ग् आन् द लेप् आफ् शङ्कर. सो द भास्कराचार्य इस् प्रेयिङ्ग् टु हूम्? टु गणेश. ओके, नीला गल. सो गल इस् वाट् इन् द नेक्. लुलल्लोल, देट् मीन्स् लुलल्लोल. सि केन् यु सी दिस् रेड् हियर्? लुलल्लोल. लुल मीन्स् स्वेयिङ्ग्, लोल मीन्स् कायिलिङ्ग् अण्ड् अन्कायिलिङ्ग्. हू इस् कायिलिङ्ग् अण्ड् अन्कायिलिङ्ग्? द स्नेक्. हू इस् द स्नेक्? द नेम् आफ् द स्नेक् इस् काल्ड् कालव्याल. स्नेक् इस् काल्ड् हियर् एस् कालव्याल. विलासिनी. लास्ट् टैम् ऐ डोण्ट् नो इफ् अलेख्य वास् देर् इन् द वर्ग, वि हेड् सीन् दट् वाक्यम् इन् पञ्च षष्ठः पाठ. केन् यु ओपन् षष्ठः पाठ इन् य बुक् पेज् 22, द्वाविंशतितमे पुटे. नारी, लास्ट् लास्ट् वाक्यं, नारी पत्या विलसति. केन् यु सी दट्? I'll show you here also if you want. Are you able to see my PDF of the which I'm showing of the Baldarsha Pustakam? No.
Yeah, yeah.
You're able to see the Baldarsha Pustakam now? Okay, okay. So here on page 20, Dvadimshati Pute. एकनिमिष. अत्र पश्यन्तु, नारी पठतु, पठतु.
नारी
पत्या,
नारी पत्या
विलसति. मीनिङ्ग् आफ् लसति. पूर्वं पूर्वस्मिन् पाठे लसति इति क्रियापदं दृष्टं खलु? लसति. कस्मिन् पाठे लसति क्रियापदम् आसीत्, स्मरति वा? द्वितीयपाठे, चतुर्दशपुटे, चतुर्दश. यु नो द नम्बर्स् रैट् अलेख्या? यु नो द संस्कृत नेम्स् फोर् नम्बर्स् नौ? चतुर्दश इस् वाट्?
14
खलु? सो आन् पेज् 14 देर् मुखं लसति अस्ति खलु वाक्यं, लास्ट् वाक्यं, द लास्ट् सेण्टेन्स् दृष्टम्? अर्नात् त्वया अपि दृष्टं वा? अर्ना, डु यु हेव् ए बुक् वित् आर् नो नाट् येत् अर्ना? नाट् येत् रैट्? ओके, ऐ विल् शो यु, ऐ विल् शो यु, ऐ विल् शो यु. So there we had seen the vakyam. Dvitiya pathe kalu. Atra drishyate arna drishpasya. Can you see mukham? What patatu?
Lasati. Mukham lasati.
Mukham lasati. Now what is the vakyam on chaturdasha pute, dvavimshati pute? What is the vakyam? नारी पत्या विलसति. सो केन् यु सी दट् दिस् वि इस् अन् एक्स्ट्रा थिङ्ग् रैट्? अत्र वि उपसर्गः अस्ति. दिस् इस् समथिङ्ग् एक्स्ट्रा विच् यु पुट् इट् इन् द बिगिनिङ्ग् आफ् द क्रियापदम्. इट्स् विसर्ग उपसर्गः, विच् इस् काल्ड् उपसर्गः. तर्हि विलसति, परन्तु अत्र उपसर्गस्य योजनेन अर्थं समानेव. लिटल् इट्स् लैक् मोर्. फार् एक्साम्पल्, नारी पत्या विलसति मीन्स् वाट्? If you have a nari and if she is there with her husband, she looks more shobhita, right? She is more beautiful. She is complete, right? Earlier what we said, mukham lasati means we had taken the meaning shines, right? Shines means shobhate. Mukham shobhate, we say, right? Your face is looking good. So that meaning is what? Lasati. It need not shine like a tube light or something. Shining means not in that sense. Okay, शैनिङ्ग् मीन्स् शोभते. अलेख्य अवगतवती वा? अर्णा अवगतवती? अवगता? आम्. तर्हि नौ द सेम् क्रियापद् केन् यु सी हियर् इन् वाट् वि आर् सीङ्ग् विलसति खलु. अत्र किमस्ति? विलसिने. इट्स् डिफ्रेण्ट् फार्म् आफ् द सेम् क्रियापदम् विलासिने. सो सेम् अर्थ इस् द सेम्. कालव्याल विलासिने. गणेशाय नमो. हूमि इस् भास्कराचार्य प्रेयिङ्ग् गणेशाय. गणेशाय नमो नीलकमलामलकान्तये. वाट् इस् मिनिमम् नीलकमलामलकान्तये? नील मीन्स् ब्लू. कमल इस् वाट्? वाट् इस् कमल? मलकान्तये. कान्ति मीन्स् वाट्? योर् कान्ति इस् एक्चुलि स्किन्. ओके. सो स्प्लेण्डेण्ट् रिस्प्लेण्डेण्ट् लैक् द स्पाट्लेस् ब्लू लोटस्. सो ही इस् प्रेयिङ्ग् टु गणेश हूस् बाडि हूस् रूप इस् लैक् द ब्लू लोटस्. रैट्? स्पाट्लेस् लैक् द ब्लू लोटस्. दिस् इस् वाट् इट् इस् ट्रैङ्ग् टु से. अवगतं वा? तर्हि एकवारं गायामः वा पुनः अलेख्य? अलेख्य, आर् यु लिस्निङ्ग्? अर्णा अहं गायतु.
नीलाकललुलल्लोल
कालव्याल विलासिने.
कालव्याल विलासिने.
गणेशाय नमो.
गणेशाय नमो.
नीलकमलामलकान्तये.
नीलकमलामलकान्तये.
उत्तमम्. तर्हि इदानीम् एकः प्रश्नः अस्ति. अलेक् अरुणा, अरुणा, हेव् यु सीन् द रेकार्डिङ्ग्स् आफ़् द अर्लियर् 5 to 6 क्लासेस्?
यस्.
यु हेव्? ओके, ओके, गुड्. सो वाट् वि विल् डू इस् विल् स्टार्ट् वित् सम्. ओके, विल् डू दिस् पाठ. We'll just revise with Shastra Patha. Do you remember Kriyapadam? Also on the WhatsApp Gana, I have given you some Kriyapadani. Have you seen the WhatsApp? Did you see the WhatsApp 2 pictures which I have posted? They're all Kriyapadam with the meaning. Okay? So you can have a list of many Kriyapadam now. Okay. So what we will do is now, we will try to memorize this table. Okay, let us take some kriyapada. Right now suppose karoti is there. Okay, so let us play a game. Idan krida rupena abhyasam kurma. What is the krida? I will say I am. You should say what should be the roop of the kriyapada. For example, I am karoti. If I say imam, you should say kurutah. If I say ime, you should say kuruvanti. If I say aham, what you should say? Karomi. पूर्वः वयं कुर्मः. सो फस्ट् वाट् विल् डू विल् रीड् द टेबल् कम्प्लीट्लि. ओके. सो ऐ विल् रीड्. प्लीस् रीड् आफ्टर् मी. अयं करोति. बोत् आफ् यू रीड्.
अयं करोति.
इमौ कुरुतः.
इमौ कुरुतः.
इमे कुर्वन्ति.
इमे
त्वं करोषि.
त्वं करोषि.
युवां कुरुतः.
युवां
कुरुतः.
यूयं कुरुतः.
उत्तमम्. अहं करोमि.
अहं करोमि.
आवां कुर्वः.
आवां कुर्वः.
वयं कुर्मः.
वयं
इदानीम् ऐ विल् से वन् वन् word, please complete the vakyam. Okay. Tvam.
Karomi.
Tvam. No, tvam is karoshi. Tvam.
Karoshi.
Arna, what are you doing? There's lot of noise, sound coming. Are you hitting something with a pen? Are you playing with some pen or something? There's lot of disturbance coming from your. Sit in a quiet place, okay? Okay, both of you repeat now. Tvam, when I say tvam, complete the vakyam. It should be tvam karoshi. Say.
Tvam karoshi.
Yuva.
Kuruvam. Kurutaha.
Kurutaha. Say the complete vakyam. Yuva kurutaha.
Yuvam kurutaha.
Vayam.
Vayam kurmaha.
I am
karoti.
Ime
kurvanti.
Aham
karomi. Karomi.
Avam
kurvaha.
Avam sampurna. Avam purvaha.
Purvaha.
Tvam.
Tvam karoshi.
Karoshi. Uttam. Now let us take a different kriyapada. This was kru. Kru karoshi. This was kru. Now you have Baldarsha Pustaka Malika in front of you. Can you choose any other kriyapadam? Gam gachati. Whatever you want, you take. And let us play the game again. Vadatu.
Lasati.
Uttamam. Take lasati. Sari, karatu.
Ayam lasati.
Ayam.
Okay. Say it once again. Ayam lasati. Imau lasataha.
Imau lasataha.
Ime lasati. Tvam lasati.
Tvam lasati.
Yuvam lasataha. Aham lasami.
Aham lasami.
Avam lasavah.
Avam lasavah.
Vayam lasamah.
Vayam lasamah.
Now what is the vakyam is? Lasati. The kriyapadam is lasati. Okay. So I will choose whatever one word. Say the complete vakyam. Tvam. What should happen? Tvam lasati. Vadatu. Tvam lasati. Lasati.
Tvam lasati.
Ime. For ime.
Ime lasati.
Lasanti. Imau. Imau.
Imau.
Lasataha. Ayam.
Ayam. Lasanti.
No, there is no. Why? Who said lasanti? Ayam lasati. Hello. Ayam lasati. Ime lasanti. Ime. If it is ime, ime bahuvachana. Ime lasanti. Vayam.
Vayam. Lasamaha.
Vayam lasamaha. Aham.
Aham lasami.
Uttamam. Avam.
Lasavaha.
Avam lasamaha. Okay. Now, instead of I am, I will use the tad paroksha bhava. Tad. This is idam. What is this? This is the idam shabda, right? From idam you have this I am, imau, ime. For stilinga, iam, ime, imaha. For napunsakalinga, idam ime imani, right? So this is the idam shabda. This is the tad shabda, tad. Okay. For tad iti parokshe, that means when you are talking about somebody whom you are not seeing in the front, then we use saha, right? So it is saha tau te, for pulling. पुल्लिङ्गे इस् वाट् सः तौ ते स्त्रीलिङ्गे सा ते ताः नपुंसकलिङ्गे तत् ते तानि ओके रैट् नौ विल् यूस् द पुल्लिङ्गरूपं सः तौ ते ओके नौ यु चूस् एनि अदर् क्रियार्थप्रदम् ओके लेटस् टेक् तरति लेटस् टेक् तरति ऐ विल् से वन् द स्टार्टिङ्ग् आफ् सेण्टेन्स् कम्प्लीट् द वाक्यं वयं
वयं तरामि
वयं तरामः वयम् इत्युक्ते वि आल् रैट् वि आल् आर् स्विमिङ्ग् वयं तरामः अहं
तरामि
युवां
युवां तरतः
सः
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 तरति
त्वं
त्वं तरसि
ते
ते तरन्ति
तरन्ति तरन्ति तौ
तौ तरतः
तरतः आवाम्
आवां तरामः तरावः
तरावः वयं
वयं तरामि
ओके नौ लेट् अस् टेक् अनदर् क्रियापदं विच् क्रियापदं यु वुड् लैक् टु टेक् अर्णा ओर् अरेक्या वद अन्य किमपि
किम्
हसति ओके ओके एण्ड् लेट् अस् टेक् द तदिति परोक्षे सः तौ ते ओन्लि ओके सो ऐ विल् से द बिगिनिङ्ग् त्वं
त्वं हसति
उत्तमं ते
ते हरन् हरन्ति
हसन्ति
ते हसन्ति
वयं
वयं
वयं हसामः आवाम्
आवामः
हसावः हसावः तौ तौ
तौ
हसतः तौ हसतः अहं
हसामि
तरामि तरामि हसामि रैट् युवां युवा हसथः महाप्राण हसथः उसे हसथः एण्ड् हियर् इट् इस् अल्पप्राण रैट् थः इस् महाप्राण हियर् एण्ड् हियर् तः इस् दिस् इन् द ए प्रथमपुरुषे एक द्विवचने अल्पप्राण तथ खलु तथ दधन दन्त्यवर्णः खलु तर्हि तौ तरतः युवां तरथः अल्पप्राण महाप्राण वाट् द डिफरेन्स् ते हसन्ति
ते हसन्ति
ओके लैक् दिस् केन् यू प्ले दिस् गेम् एट् होम् वित् युर् फेमिलि मेम्बर्स् सो देट् यू केन् डू द प्राक्टिस् टेल् देम् टु से वन् वर्ड् यू से द क्रियापदं वाट् शुड् बि द क्रियापदम् अवगतं वा नौ यू केन् आल्सो एड् अ वर्ड् इन् बिट्वीन् फार् एक्साम्पल् अयं गच्छति तर्हि अयं विद्यालयं गच्छति तर्हि अयं देन् इफ् युर् मदर् सेस् अयं यू विल् से अयं विद्यालयं गच्छति इफ् शी सेस् त्वं यू विल् से त्वं विद्यालयं गच्छति वयं वयं विद्यालयं गच्छामः अवगतं वा So try to play this game at home like this so that you are able to memorize with all the kriyapadam okay now idanim ekam chalachitram pashyama anantaram agre abhyasam kurmah sharirasya avayavaha अस्य विषये एकं चलचित्रं पूर्वं दृष्टं खलु. चलचित्रम् इत्युक्ते आङ्ग्लमध्ये वीडियो. वाट् इस् वीडियो? इट् इस् चलचित्रं. चलचित्रं मूविङ्ग् मूविङ्ग् पिक्चर्स् रैट्. सो इफ् द पिक्चर्स् कीप् मूविङ्ग् इट् लुक्स् एस् इफ् इट् इस् रियल्. दट् इस् काल्ड् अ चलचित्र. इट्स् अ वीडियो. तर्हि ऐ होप् ऐ रिक्वेस्ट् यू that after video looking that means after today's work, can you make a list of sharira avayavaha? Have you done it before, Anna or Alikya?
No.
I will show you. What I request you to do, what here is to make a list in your lekhana pustika. You have a notebook, right? Lekhana pustika. In that, make a list of all these names, sharirasya avayavaha. Hey, what happened? Where is the time?
Aham karoti.
Ekam karoti. Why is it taking time? What happened? If I reload, what would happen? Wait, I'll make it quick. Here now I say Keshaha. Can you say it? Please say the vakyam. Mama Keshaha. Say the vakyam.
Keshaha.
Mama. Say the complete vakyam. You are talking about your hair, right? Mama Keshaha. Touch your hair with your hand. Alekya, Bhavati, Swamapi. Shiraha, head. Touch your head with your one hand. Shiraha. Mama Shiraha. Say. Alekya. Karnau. Now you are touching both your ears, okay? So Karnau, say Mama Karnau.
Mama Karnau.
Mama Karnau. So if you touch only one ear, what you should say? Mama Karnaha, right? Yada ekam eva karnam sprishati. Yada ekam eva karnam sprishati, tada Mama Karnaha. Now touch with both your hands. Yeah, yes. What you should say? Mama Karnau. Puna?
Mama Karnau.
Huh?
Do we have to write this down?
Not now. After you have, I will send this chalachitram on your on the, what do you say, email. You can afterwards watch it once again and then write down these names in your lekhana pustika.
And then we have to send it.
No, don't send it anywhere. You have to remember. At home, if somebody asks you, can you name the body parts in Sanskrit? You should be able to answer, right?
Yes.
That is it. Nothing more. Okay? Yes. Right now, do the abhyasa. Say, Mama Keshaha. Touch your ears.
Mama Keshaha.
Mama Shiraha. Head. Mama Shiraha. Touch your head.
Mama Shiraha.
मम कर्ण ओन्लि वन् इयर् वाट् यु से मम कर्ण नौ टच् बोत् युर् इयर्स् वाट् शुड् से मम
कर्णः
न
न यु आर् टचिङ्ग् बोत् युर् इयर् मम कर्णौ खलु अलेख्य पश्य कर्णः कर्णौ कर्णाः खलु अलेख्य टचिङ्ग् टु इयर्स् वाट् यु शुड् से मम कर्णौ जस्ट् लैक् द बाय्स् टचिङ्ग् बोत् हिस् सी द बाय्स् टचिङ्ग् बोत् हिस् चीक् सो वाट् इस् सेयिङ्ग् मम गल्लौ वाट् इस् हि सेयिङ्ग् बट् इफ् यु टच् इस् ओन्लि वन् चीक् वाट् यु शुड् से मम गल्लः गल्लः गल्लौ
गल्लः
सो नौ टच् वन् चीक् से मम गल्लः नौ टच् बोत् युर् चीक्स् एण्ड् से मम गल्लौ मम गल्लौ नौ टच् वन् आफ् युर् ऐ ओन्लि टच् वन् ऐ वित् युर् फिङ्गर् मम नेत्रं से नेत्रम् इस् नपुंसकलिङ्गे नेत्रं नेत्रे नौ वी हेव् वी आल् हेव् ओन्लि टु ऐस् रैट् सो वाट् शुड् से मम नेत्रे से टच् बोत् युर् ऐस् टच् बोत् युर् ऐस् वित् युर् फिङ्गर्स् मम नेत्रे से एण्ड् नौ टच् ओन्लि वन् ऐ वाट् शुड् से मम
नेत्रम्
मम नेत्रं मम नेत्रे से अगेन् मम नेत्रं मम नेत्रे डन् अदन् अनन्तरं वाट् इस् द वर्ड् फोर् फोर् हेड् भालं रैट् भालं तर्हि मम भालं से टच् युर् फोर् हेड् से मम भालं ओके नौ I will say the vakyam, please touch your body parts, okay, in, on your face, okay? Mama Keshaha, touch.
Mama Keshaha.
Also say the vakyam, Mama Keshaha. Mama Shiraha.
Mama Shiraha.
Head, Mama Shiraha. Mama Karanaha, touch with only one ear hand. Mama?
Shiraha.
Say the vakyam. No, Mama Karanaha, say the vakyam. Touch your ear, Mama Karanaha. Now, touch both your ears. मम कर्णौ मम नेत्रं टच् वित् वन् हेण्ड् नौ टच् वित् बोत् द हेण्ड् मम नेत्रे मम गल्लः टच् वित् वन् हेण्ड् वन् चीक् मम गल्लः मम गल्लौ मम भालं फोर् हेड्
मम भालं
अग्रे सरे वा हेव् यु अण्डर्स्टुड् टिल् नौ ओके मम नासिका टच् योर् नोस् मम मुखं माउत् मम मुखं मम दन्ताः दन्तः दन्तौ दन्ताः पुल्लिङ्ग खलु वि आल् हेव् मोर् देन् टु टीत् रैट् इन् अवर् माौत् एण्ड् देर्फोर् मम दन्ताः मम ओष्ठौ टु लिप्स् वि हेव् हौ मेनि लिप्स् टु लिप्स् एण्ड् देर्फोर् मम ओष्ठौ से मम ओष्ठौ टच् बोत् युर् लिप्स् एण्ड् से मम ओष्ठौ मम जिह्वा पुट् युर् टङ्ग् औट् एण्ड् से मम जिह्वा मम चिबुकं चिन् मम चिबुकं मम चिबुकं मम ग्रीवा नेक् टच् युर् नेक् मम ग्रीवा
मम ग्रीवा
ग्रीवा कीदृशपदं स्त्रीलिङ्ग खलु ग्रीवा यथा माला माला मालाः ग्रीवा ग्रीवे ग्रीवाः तर्हि मम ग्रीवा स्कन्धौ स्कन्धौ हौ मेनि स्कन्धाः वि हाव् हौ मेनि शोल्डर्स् टु रैट् तर्हि एकः स्कन्धः द्वौ स्कन्धौ से मम स्कन्धः टच् वन् शोल्डर् टच् वन् शोल्डर् से मम स्कन्धः मम स्कन्धः
मम स्कन्धः
मम स्कन्धौ नौ टच् बोत् योर् शोल्डर्
मम स्कन्धौ
लैक् दिस् केन् यु कम्प्लीट् दिस् साङ्ग् एण्ड् टच् आल् योर् बाडि पार्ट्स् एण्ड् मेक् द अभ्यास इस् इट् पासिबल् इन् वर्ग वि विल् नाट् डु इट् नौ ओके डु दिस् एट् होम् ओके लेट् अस् स्टडि लिटिल् मोर् ओके तर्हि षष्ठः पाठः समापितः सप्तमः आरब्धः खलु अलिख्य स्मरसि न सप्तमः आरब्धः तर्हि अरुणा अलिख्य षष्ठमः पाठः अवगतं वा हेव् यु आल् अण्डर्स्टुड् इफ् यु सिङ्ग् आम् केन् यु लुक् एट् दिस् स्लैड् एण्ड् से सम् इफ् यु वाण्ट् यु जस्ट् रीड् एण्ड् टेल् मी वाट् इस्
मीनिङ्ग् अयं बालाः शङ्कटेन गृहं गच्छति
तर्हि अस्य अर्थं किम् अयं बः दिस् बाय् रैट् शङ्कटेन शकट कीदृशपदमस्ति कूटसङ्ख्या तत्र द्वाविंशति शकटम् इदं शकटं खलु सि ऐ विल् शो यु द्वाविंशतिपुटः खलु इदं शकट दृश्यते वाक्यम् इदं शकटं मीन्स् वाट् इदम् इदम् इमे इमानि खलु इयं नौका इदं शकटम् इदम् इमे इमानि सो दिस् इस् नपुंसकलिङ्ग शकटं शकटं शकटे
शकटानि
शकटं शकटे शकटानि नेत्रं ते
नेत्रे
नेत्राणि आम् ओके ओके सो इफ् ऐ ड्रा अ पिक्चर् आफ् एन् ऐ नौ पश्यन्तु ऐ एम् ट्रैङ्ग् टु ड्रा मै ड्रायिङ्ग् इस् नाट् सो गुड् सो ओके इमेजिन् दिस् इस् अ ऐ सो वाट् विल् यु से वाट् शुड् बि द वाक्यम् नेत्रं नेत्रे नेत्राणि नपुंसकलिङ्गः अस्ति खलु सो वाट् शुड् बि द वाक्यं जस्ट् लैक् इदं शकटं वाट् शुड् बि द वाक्यं ह्यर् वाक्यं किं भवेत् इदं नेत्रं खलु नपुंसकलिङ्गे इदं शकटम् इदं नेत्रम् जस्ट् लैक् मम भालं खलु मै फोर् हेड् मम भालं भालं भाले भालानि नेत्रं नेत्रे नेत्राणि शकटं
शकटे शकटानि
आम् इदं शकटम् इदं नेत्रम् उत्तमं सो लेट् अस् कम् बेक् टु अवर् दिस् सो अयं बालः शकटेन गृहं गच्छति केन प्रश्नः वाट् इस् द प्रश्न केन केन शकटेन गृहं गच्छति तर्हि अयं बालः कुत्र गच्छति वाट् इस् द उत्तरम् अयं बालः गृहं गच्छति कुत्र गच्छति गृहं गच्छति केन गच्छति केन गच्छति
शकटेन
शकटेन न अस्य वाक्यस्य एव द्विवचनं किम् इमौ नरौ नौ इन्स्ट्रा ओके यु वाण्ट् टु से द द्विवचनं फोर् द सेम् वाक्यम् अयं बालः what it should be imau balau
imau balau
shakatena
aham gacchati
gacchatah द्विवचनं खलु
गच्छतः
आं गच्छतः तर्हि प्रश्नः इमौ नरौ इमौ बालौ केन गृहं गच्छतः प्रश्नः खलु एण्ड् बहुवचनम् इति वाट् अयम् इमौ इमे इमे बालाः
इमे बालाः शकटेन गृहं गच्छन्ति
Now instead of balaha, you can use the word naraha. Tari, what will happen? I am balaha, I am naraha. Hello, I am naraha shakatena graham gachati. Now, I am naraha shakatena graham gachati. Asya vakya sa dvivachanam karotu. Alekya, karotu dvivachanam.
I am balau.
No, no, don't say bala, nara, the word is naraha. I am naraha,
shakatena graham gachati.
Asya di vachanam kurtu vakyasya? Imau narau.
Imau narau, shakatena graham gachati.
Gachata. And bahu vachanam kurtu? Bahu vachanam? इमे खलु हा इमे
नरे
नराः
इमे नराः शकटेन गृहं गच्छन्ति
उत्तमम् इदानीम् अर्णा अहं वाक्यं वदामि एकवचनस्य वाक्यं वदामि अर्णा श्रुणोतु अयं जनः केन् यू सी दिस् वर्ड् जनः इद यर् जनः शब्दः अयं जनः शकटेन गृहं गच्छति करोतु द्विवचनम् अयं नरः शकटेन गृहं गच्छति द्विवचनं करोतु न न अयम् इमौ खलु द्विवचने इमौ इमौ जनौ
इमौ जनौ इमौ जनौ शकटेन गृहं
गच्छति गृहं गच्छतः
गच्छतः
सिद्ध पुनः वाक्यं वदतु पुनः वदतु वाक्यम् गृहं गच्छतः न बहुवचनं करोतु वाक्यस्य बहुवचनम् गच्छन्ति उत्तमम् तर्हि तृतीयविभक्तेः अभ्यासः अत्र प्रश्नार्थे पश्यन्तु केन अस्ति खलु वाट् वास् द क्वश्चन् केन खलु अत्र प्रश्नः किम् आसीत् केन शकटेन शकटम् इस् वाट् नपुंसकलिङ्गः खलु शकटं शकटे शकटानि तर्हि शकटं नपुंसकलिङ्गः अस्ति तर्हि तृतीयविभक्तिप्रश्नः किं भवति प्रश्नार्थे केन एकवचने केन काभ्यां द्विवचने कैः बहुवचने खलु पुल्लिङ्गे अपि केन काभ्यां कैः वदन्तु
तृतीयविभक्तिभ्यां
कैः उदाहरणार्थ अहं हस्तेन दर्शयामि लिसन् टु वाक्यम् अहं हस्तेन दर्शयामि दट् मीन्स् ऐ एम् शोयिङ्ग् और् पायिण्टिङ्ग् वित् मै हेण्ड् तर्हि हस्तः कीदृशी पदं हस्तः हस्तौ
हस्ताः
तर्हि पुल्लिङ्ग् अस्ति खलु प्रश्नः किं भवेत्? प्रश्नः किं भवेत्? इयं बाला हस्तेन, लेट् अस् से द वाक्यं, वन् गर्ल् इस् पायिण्टिङ्ग् औट् वित् हर् हेण्ड्, फार् एक्साम्पल् हियर् इन्स्ट् आफ् बाय् इमेजिन् देर् इस् अ गर्ल्, ओके, इयं बाला हस्तेन चन्द्रम् आह्वयति, शी इस् कालिङ्ग् औट् टु द मून्. तर्हि केन प्रश्नः, वाट् इस् द प्रश्नः? केन, केन हस्तेन, हेव् यु अण्डर्स्टुड् दिस् अर्ना? तर्हि केन आह्वयति? हस्तेन. ओके, नौ ऐ विल् से, ओके, ऐ हेव् शेर्ड् वित् यु द विभक्ति टेबल्. हेव् यु आल् सीन् द विभक्ति टेबल्? ऐ विल् शो यु नौ आल्सो. इन् द वाट्सप् गण ऐ हेव् शेर्ड् वन् चलचित्र आफ् माला, माला माले मालाः प्रथमा. हेव् यु सीन् द चलचित्रम्? Seen, both of you have seen?
I've seen
it. No, yes or no?
Yeah.
Okay, so do you remember how it was? All the seven vibhaktis were sung, right, in that?
Yeah.
Now, instead of mala, we have Sita. Sita, 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 Prathama. Sita, 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 Dvitiya. Sita, Sita, Phyam, Sita, Phihi, Tritiya. Sita, Yes. सीताभ्यां सीताभ्यः चतुर्थी. रैट् नौ वि हेव् स्टडिड् टिल् ओन्लि तृतीया विभक्ति. ओके, लुक् हियर्, रामेण, रामः पुल्लिङ्गशब्दः, अकारान्त पुल्लिङ्गशब्दः. नौ जस्ट् नौ वि सौ हस्तेन, खलु, हस्तः, हस्तौ, हस्ताः प्रथमा. सेम् प्लीस् बोधो मि से आफ्टर् मी, हस्तं, हस्तौ, हस्तान् द्वितीया, हस्ताभ्यां हस्तैः तृतीया, हस्तैः तृतीया. ओके, सो तृतीया इस् वाट्? तृतीया इस् द करणं, द यु यु इट् इस् द यु डू द एक्षन् वित् द यूस् आफ् द तृतीया विभक्ति. अहं हस्तेन, बालः हस्तेन चन्द्रम् आह्वयति. केन आह्वयति? हस्तेन, हस्तः, हस्तेन. रामः?
रामेण,
रामेण. बालः?
बालेन,
बालेन. वृक्षः?
वृक्षेण,
वृक्षेण. आसन्दः? आसन्दः, आसन्देन. आसन्दः, आसन्देन.
वाट्
हेपन्ड्? देयर् इस् लाट् आफ् नाय्स् कमिङ्ग् फ्रम् हूस् हौस् ऐ डोण्ट् नो, फ्रम् हूस् प्लेस् दट् नाय्स् कमिङ्ग् इन् बिट्वीन्. ऐ फील् इट्स् अर्ना, अर्ना, यु आर् डूङ्ग् सम् एक्षन्स् देर्. ऐ मूव् समथिङ्ग्,
नो,
from where is that sound coming? I don't know, khus 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 in between it's coming. Astu, okay, are you able to hear me now, Arna?
Yes, I am.
Okay, Alekia, you are also able to hear me? Alekia, the Ashwaha. Let us do the Tritiya Vibhakti. Ashvaha?
Ashvaha.
Ashvena.
Ashvena.
Can you say all the three Rupani? Ashvena, Ashvabhyam, Ashvena.
Ashvena, Ashvabhyam, Ashvena.
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 Ashvabhyam.
Ashvabhyam.
अश्वैः,
अश्वैः
तृतीया,
तृतीया,
रथः, अयं रथः, तर्हि रथेन, रथाभ्यां रथैः तृतीया अनन्तरम् इतोपि अकारान्तपुल्लिङ्गकोऽपि स्मरति वा शब्दं केन् यु टेक् सम् वर्ड् इस् योर् ओन् चाय्स् अकारान्तपुल्लिङ्गः केन् यु थिङ्क् वा एनिबडि गजः डु यु रिमेम्बर् गजः से गजेन
गजेन
गजाभ्यां गजाभ्यां
गजाभ्यां
गजैः तृतीया आम् सो रैट् नौ दिस् वट् एवर् वर्ड्स् यू केन् सी हियर् हस्तेन दिस् इस् तृतीया विभक्ति एकवचनं खलु अत्रापि शकटं शकटे शकटानि शकटेन वन्स् अगेन् शकटम् इस् अ नपुंसकलिङ्गपदं सो वाट् विल् बि तृतीयरूपाणि लेट् अस् लुक् एट् द तृतीया विभक्तिरूपाणि इन् दिस् टेबल् फोर् नपुंसकलिङ्ग नपुंसकलिङ्गार्थं किं दत्तमस्ति अत्र वनं वनं वन अकारान्त नपुंसकलिङ्गवनशब्दः वनं वने वनानि प्रथमा से
वनं वने वनानि प्रथमा
वनं वने वनानि द्वितीया
वनं वने वनानि द्वितीया
वनेन वनाभ्यां वनैः तृतीया वनेन वनेन
वनेन
वनाभ्यां
वनाभ्यां
वनैः तृतीया
वनैः तृतीया
तु वनेन ओके तर्हि वन वनं से तृतीया विभक्ति एकवचनं वनेन शकटं
शकटं
शकटेन हलो वट् इस् शकटेन तृतीया विभक्ति एकवचनं शकटं शकटेन नेत्रं नेत्रं नेत्रेण फलं
फलेन
फलं फलेन जलं
जलेन
जलं जलेन पुष्पं
पुष्पेन
कुसुमं
कुसुमेन
कुसुमेन इतोपि केन् यु इमेजिन् अप् एनी अदर् नपुंसकलिङ्गशब्दं रिमेम्बर् गृहं गृहं गृहे चक्रम् उत्तमं चक्रं
चक्रेण
चक्रेण ओके सो नौ लुक् हियर् चक्रं चक्रेण चक्राभ्यां चक्रैः से चक्रेण चक्राभ्यां चक्रैः तर्हि रथं केन गच्छति रथं कथं गच्छति रथम् इट् गोस् वित् वन् वील् आर् टु वील्स् तर्हि चक्रेण गच्छति वा चक्राभ्यां गच्छति
चक्रेण
अरे डस् इट् गो वित् ओन्लि वन् वील् केन् यु सी टु वील्स् आर् देर् न हियर् तो चक्रेण वा चक्राभ्यां
चक्राभ्यां
तर्हि शकटं चक्राभ्यां गच्छति श्रीतवाक्यं शकटं
शकटं
चक्राभ्यां
चक्राभ्यां
गच्छति
गच्छति
शकटं चक्राभ्यां गच्छति अत्र वाक्यमस्ति पश्यन्तु अशुविधवाक्यम् शकटं रीड् इट्
शकटं
चक्राभ्यां
चक्राभ्यां
गच्छति नौ लेट् अस् यूस् द द्विवचनं हौ मेनि नेत्रं वि हाव् टू रैट् नेत्रं नेत्रे नेत्राणि नपुंसकलिङ्गपदमस्ति खलु तर्हि शकटं किं भवति चक्रं किं भवति चक्रेण चक्राभ्यां चक्रैः तर्हि चक्रेण इन्स्ट् आफ् दट् द्विवचनम् इस् चक्राभ्यां खलु तर्हि नेत्रं द्विवचनं द्वितीया विभक्ति द्विवचनं नेत्राभ्यां खलु चक्रं चक्राभ्यां नेत्रं
नेत्राभ्यां
तर्हि अहं नेत्राभ्यां पश्यामि वाट् शुड् बि द वाक्यम् अहम् ऐ सी वित् मै टु ऐस् अहं
नेत्राभ्यां
पश्यामि इदानीं पादः फीट् पादः वाट् इस् तृतीया विभक्ति द्विवचनं रूपम् ऐ शो यु सो पादः इस् पुल्लिङ्ग खलु रामः शब्दवत् तर्हि किं भवति रामेण रामाभ्यां रामैः पादः किं भवेत् पादेन
पादाभ्यां
पादाभ्यां पादैः सो द्विवचनं बिफोर् फीट् इस् पादाभ्याम् अहं पादाभ्यां गच्छामि खलु वचुभितवाक्यम्
I'm
walking four feet, right? Aham padabhyam.
Aham padabhyam.
Padabhyam. Padhana. Padabhyam.
Padhana.
Gachami. Aham padabhyam gachami.
Aham padabhyam gachami.
Hastaha. Pulling asti kalu. Tari aham hastena darshayami. Aham hastabhyam. I show with, I'm pointing with my both hands. What should be the vakya? Aham hastabhyam.
Aham hastabhyam.
Darshayami. Hello?
Darshayami.
I'm showing with both my hands. Aham hastabhyam, darshayami. Okay. Aham hastabhyam, vastu nayami. Right? I'm holding some vastu, some object with my two hands. I'm taking it. So what will be the vakyam? Aham hastabhyam.
Aham hastabhyam.
Vastu.
Vastu.
Let us not use the word vastu. Let us take phalam. Okay. Aham hastabhyam. Phalam nayami. Hello? Say the vakyam.
Aham hastabhyam.
Phalam.
Phalam. Phalam.
Nayami.
Nayami.
I'm taking one fruit with both my hands. Okay? So, like this, what we'll have to do is, all this vakyani which I have given here, Pashyantu, we have just done one abhyasa in the beginning, right? If it is gachami, aham, what is the, for aham, what is the combination? Aham, gachami. Hello? Tvam, tvam, what is the combination? Tvam?
Tvam.
Gachasi. Hello? Tvam, gachasi. So this boy is looking at the person who is going and he's saying what? Tvam.
Gachasi.
Tvam, shakatena.
Tvam, shakatena.
Graham. Gachasi.
Graham, gachasi. गृहं गच्छति
वाट् इस् द क्वश्चन् त्वं केन गृहं गच्छसि इस् द क्वश्चन् रैट् उत्तरं त्वं शकटेन गृहं गच्छसि नौ जस्ट् शकटं लेट् अस् यूस् द वर्ड् यानम् लेट् अस् यूस् द वर्ड् यानम् Can you say the vakyam? Now, instead of shakatam, say yanam. Can you say it now? Same vakyam. Say the same vakyam. Yanam. Yanam yane, yanani. Napunsakalingapadam. यानानि यानानि तर्हि अहं यानेन वेहिकल् सम् वेहिकल् अहं यानेन गृहं
गृहं
गच्छामि
गच्छामि
अवगतम् अहं लोकयानेन फार् बस् वाट् इस् अदर् वर्ड् फार् बस् लोकयानम् ओके केन् यु से द सेम् वाक्य नौ अलेके से अहं लोकयानं लोकयाने लोकयानानि नपुंसकलिङ्गपदं शकटं शकटे शकटानि शकटं बिकेम् शकटेन यानं बिकेम् यानेन तर्हि लोकयानं वाट् विल् हेपन् टु लोकयानं
लोकयाने
लोकयानेन
लोकयानेन
आम् यानं यानेन लोकयानं लोकयानेन अवगतम् अहं लोकयानेन गृहं गच्छामि नौका नौका नौकया नौका स्त्रीलिङ्गपदमस्ति तर्हि तृतीयविभक्तिरूपं किं नौका नौकया से नौका नौकया माला मालया माला मालया सीता सीतया मापिका
मापिका
मापिकया बाला
बालया
बाला बालया नौका
नौकया
राइट नौकया तर्हि अहं नौकया नदीं तरामि
तरामि
राइट आई एम क्रॉसिंग द रिवर विद द वर्ड हेल्प ऑफ व्हाट नौका नौका इज अ साधनम् तृतीया विभक्ति अहं नौकया नदीं
तरामि
नाउ द बॉय हु इज लुकिंग एट दिस एक्शन व्हाट ही विल से त्वं नौकया नदी
नदी तरामि
तरसि प्रश्नः किम् इन्स्ट्रफ केन इट् इस् नौ कया त्वं कया नदीं तरसि कया नौकया अवगतं वा बिकास् नौका इस् स्त्रीलिङ्गपदं सो द क्वशन् आल्सो शुड् बि इन् द स्त्रीलिङ्ग ऐ शो यु फर् द स्त्रीलिङ्ग वाट् इस् द रूपं फर् स्त्रीलिङ्ग द रूपम् इस् वाट् कया लुख्य स्त्रीलिङ्ग का के काः खलु सो द क्वशन् इस् वाट् कया काभ्यां काभिः सो कया अहं कया नौ नदीं तरसि अहं नौकया नदीं तरामि हेव् यु अण्डर्स्टुड् द रिलेशन् बिट्वीन् दीस् विभक्तीस् सो वाट् विल् हेव् टु डू इस् विल् हेव् टु रीड् दिस् वाक्यम् अगेन् अण्ड् अगेन् देट्स् आल् नथिङ्ग् मोर् विल् हेव् टु रीड् दिस् फार् एक्साम्पल् हियर् नौ दीस् टू पीपल् आर् गोयिङ्ग् सो वाट् इस् वाट् दे विल् से आवाम् राट् आवाम् मीन्स् वाट् बी टु सो दे आर् सेयिङ्ग् आवां नौकया आवां नौकया नदीं तरावः आवाम् इन् द मार्निङ्ग् इन् द बिगिनिङ्ग् वि जस्ट् प्लेड् द गेम् राट् आवां पशुविद्यक्रियापदम् अहं तरामि आवां तरावः खलु आवां द काम्बिनेशन् इस् वाट् तरावः सो आवां तरावः आवां नौकया नदीं तरावः we two are going with the boat across the river right the boy who's seeing what he will say yuvam that means you two is this boy going with them in the nauka no right so he's saying you two is what yushmat shabdasya madhyam purushasya dvivachanam kim tatha pashyatu tvam madhye ekvachanam tvam dvivachanam युवां रैट् द्विवचनं युवां वित् युवाम् इट् इस् कुरुथः सो नौ वाट् शुड् हेपन् हियर् for yuvam yuva naukaya nadim tarathah. So for yuvam the combination is with the kriya padam what? Tarathah, right? Alekya avagata tari yuvam tarathah. Now let us complete the vakyam. Yuvam naukaya nadim tarathah. Got it? Now what is your question? What should be the question? Nauka is striling padam. Yuvam kaya nadim tarathah. Please say the question.
Yuvam naukaya nadim
question. Yuvam kaya.
Yuvam kaya nadim tarathah.
Yuvam naukaya.
Yuvam naukaya.
Naukaya
nadim tarathah.
And now the bahuvachanam, instead of two people going, many people are going. So yuvam, for yuvam, for yuvam it was tarathah, and for yuvam it will be tarathah, right? Yuvam tarathah. So yuvam naukaya nadim tarathah. What is the question? Yuvam kaya nadim taratha. Naukaya. Kaya
taratha.
Kaya naukaya. Vayam. Now those people who are going, what they are saying? We all, right? This is a bahuvachanam. 1 to 3 of them are there. So vayam naukaya nadim taramaha. What are they saying? Vayam. Vayam taramaha. Kulu vayam combines with what? Taramaha. Vayam naukaya nadim taramaha. Say.
Vayam naukaha. Vayam naukaha.
Naukaya.
Vayam naukaya. Naukaya nadim taramaha.
Nadim. There's a dot here.
Nadim taramaha.
Naukayam
nadim
taramaha. Where is the dot on ya? Naukaya. Hello. Vayam naukaya. Say again.
Vayam nadim.
Naukaya.
Vayam naukaya nadim.
Nadim, there's a dot here, Nadim.
Nadim Taratha.
Nadim Taramaha.
Taramaha.
Navikaha Kshepanya Naukam Kshipati. What is the Navikaha doing? Navikaha Kshepanya. Kshepani Kshepanya. Nadi Nadya. Darvi, what will happen to Darvi? Darvya. Nadi.
Nadi.
Nadya. Kshepani.
Kshepani.
Kshepanya. Now I'll show you the Tritiya Vibhakti Rupani here. Okay. For Nadi, the word is, what is the word given here? Nadi only. Okay. Here. Nadi, Nadyav, Nadyah, Prathama. The Tritiya Vibhakti Rupani is what? Nadya, Nadi, Nadya, Darvi,
Darvya,
Kshepani,
Kshepani,
Kshepanya. Are you Kupi, 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 Kupya. Kupya, Nadi, Nadya. Sorry, aham kupya jalam pibami. I'm drinking water from the bottle. Right? So what is the vakyam? Aham kupya. Say the vakyam. Aham kupya.
अहं कुप्या
जलं पिबामि
जलं पिबामि
तर्हि वाट् इस् द नाविकः डूयिङ्ग् क्षेपणी क्षेपण्या खलु द नाविक वाट् इस् हि डूयिङ्ग् हि इस् टेकिङ्ग् द बोट् अहेड् वित् द क्षेपणी दिस् वाट् इस् देर् इन् हिस् हेण्ड् इस् काल्ड् क्षेपणी वाट् इस् इट् काल्ड् क्षेपणी अहं क्षेपण्या वाट् इस् द नाविक सेयिङ्ग् नाविकः क्षेपण्या किं करोति नाविकः क्षेपण्या नौकां क्षिपति he is moving the boat ahead with the kshepani right kshipati that means taking it ahead kshipati moving the boat ahead ha navikah kshepanya nauka kshipati then prashna navikah kshepani is a striling padam nadi nadi striling tathaiva kshepani strilinga therefore the question also will be kaya striling right navikah कया नौकां क्षिपति उत्तरं नाविकः
नाविकः
क्षेपण्या
क्षेपण्या
नौकां क्षिपति
नौकां क्षिपति
ओके लेट् अस् लुक् एट् दिस् With this we will stop, okay? After this, I would request you to read the chapters once again. Pashantu. Lata Pushpaihi Lasati.
Lata Pushpaihi Lasati.
Now, why Pushpaihi? Why not Pushpena?
Because there are more flowers.
There are many flowers, right? Then what is the Prithya Vibhakti Rupani? Pushpam, Pushpe, Pushpani is a Napunsakalinga Padam. Just like Shakatam, Shakate, Shakatani. तर्हि बालः शकटेन गच्छति शकटेन तथैव पुष्पेण पुष्पेण पुष्पाभ्यां पुष्पैः रैट् तृतीयविभक्तिबहुवचनं पुष्पैः तर्हि लता पुष्पैः लसति प्रश्नः किं भवेत् लता कैः लसति निश्चितवाक्यं
लता कैः लता कैः
लसति लता पुष्पैः लसति नौ लेट् अस् डू बाल फार् पुल्लिङ्ग एण्ड् नपुंसकलिङ्ग फार् पुल्लिङ्ग एण्ड् नपुंसकलिङ्ग तृतीया विभक्तिरूपाणि आर् सेम् जस्ट् लैक् एस् वि सो हियर् एस् वि सो हियर् किं सी हियर् केन काभ्यां कैः प्रश्नार्थे नपुंसकलिङ्ग आल्सो इट् इस् केन काभ्यं कैः रैट् सेम् न सो द तृतीया विभक्ति एण्ड् द पुल्लिङ्ग एण्ड् नपुंसकलिङ्ग इस् सेम् एण्ड् देर्फोर् इन् नौ इन् दिस् चित्र इफ् ऐ से बालः वर्गः द अवर् क्लास् द वर्गः बालैः शोभते खलु वर्गः कैः शोभते प्रश्नः वर्गः कैः शोभते उत्तर वर्गः वर्गः बालैः शोभते
शोभते
ओके लुक् हियर् नारी पत्या विलसति दट्स् द लास्ट् वाक्य ओन् द्वाविंशतिपुटः नारी पत्या विलसति प्रश्नः नारी कया वै इट् इस् नाट् कया इट् इस् केन बिकास् पतिः इस् पुल्लिङ्ग खलु पतिः पतिः इस् पुल्लिङ्ग शब्द जस्ट् लैक् कपिः नृपतिः डू रिमेम्बर् इन् द अर्ली चाप्टर्स् वी हेव् डन् कपिः नृपतिः सारथिः सारथिः दे आर् आल् पुल्लिङ्ग शब्दाः ओके समान एव पतिः तर्हि नारी केन बिकास् इट्स् अ पुल्लिङ्ग नारी केन विलसति उत्तर
नारी नारी
पत्या
विलसति
लेट् अस् इन्वर्स् लेट् अस् चेञ्ज् द सिचुवेशन् similarly patih patnya vilasati khalu the man he looks good when he has his wife with him right so patih patnya vilasati se lise patih patnya vilasati
patih patnya vilasati
patni patnya nati nadya khalu kshepani kshepani kshepanya नदी नद्या तथैव पत्नी
पत्न्या
आम् तर्हि पतिः पत्न्या शोभते अन्यथा विलसति पतिः पत्न्या विलसति नौ वाट् शुड् बि द क्वश्चन् पत्नी इस् अ स्त्रीलिङ्ग खलु पत्नी इस् अ स्त्री सो इन्स्ट्र आफ् केन वाट् शुड् बि द प्रश्नः इन्स्ट्र आफ् केन वाट् शुड् बि द क्वश्चन् I'll give you an example. Navikah naukaya gachati. Kaya gachati kaya naukaya. Strilinga prashna is what? Kaya, right?
Oh.
So what should be the question here? Patihi patnya vilasati. Prashna, what should be the question? Patihi kaya
patihi kaya
vilasati. अवगतं वा ओके विल् डु दिस् इन् द नेक्स्ट् वर्ग सो लेट् अस् डु द शान्तिमन्त्रम् अलेख्य आर् यु डूयिङ्ग् द शान्तिमन्त्र You are able to see the screen, no?
Om Purnamadam Purnamadam
Purnamadam Purnamadam Om Purnamadam Say
Om Purnamadam Purnamidam Purnat Purnamudachyate Purnasya Purnamadaya Purnameva Vasishyate Om Shanti Shanti Shanti
Okay, Alekya, while reading this, you have missed out on one thing. Laghu and Guru. Do you remember we have done the Abhyasa? Poo, Dirgha Ukara, how much time you should take? You should take two times the time to pronounce the Dirgha, then the Laghu, right? So, now just I will sing. Pay attention to what is Dirgha. Om Purnamadah Purnamidam Purnat पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते डिड् यु रियलैस् नौ टु आल् द दीर्घ ऐ मेक् इट् बोल्ड् लेट् अस् चेक् ओके आल्रेडि बोल्ड् ओके ऐ विल् मेक् इट् डिफ्रेण्ट् कलर् okay I made it black now okay so all the dirgha are made black so this should be what
black
right then dam when the anuswara is there anuswara is there you should pronounce it as dirgha dvimatrikala samaneva atra api pu this also right then this again correct then a the te a I o au they are nitya dvimatrikala right a I o au anitya dvimatrikala so this pu is again then a o a I dvimatrikala khalu so this also should become dirgha khalu dvimatrikala समानेव मा दा दा इस् आल्सो द्विमात्रिकाल ओके देन् द नेक्स्ट् लैन् केन् यु टेल् मी विच् आर् द द्विमात्रिकान् अलेका टेल् मी देन्
वा
नो वाट् अबौट् मे
मे इस् वेल्
A I O R, they are Nitya Dvimatrika, right? Then Va is also there. Then
Va and she.
Va and then
she.
No, she is Rasva Kuru, Rasva Ikara. Va, she, Shia. Then what is the last? That is also Dvimatrika Lakaru. And then Om Shanti. In Shanti, the A. Can you see this A? Shanti. This is also Dvimatrika. So you should sing it that way. Are you getting the point? So I'll sing it once again. Yeah. Om Purnamadah Purnamidam Purnat. See, can you see? Purnat. Here, both the places I have given equal time. And Ta is Halanta. Purnat Purna Mudachyate Purnasya Purna Madaya Purna Meva Vashishyate. Got it? Om Shanti Shanti Shantihi. Okay, so pay attention to the Araswa and Dirga next time, okay? Okay, so just a minute, I'll stop the recording.